अष्टाध्यायाः द्वितीयाध्याये तृतीयः पादः अनभिहिताधिकारः अनभिहिते कर्मणि द्वितीया तृतीया जहोश्छन्दसि अन्तरान्तरेण युक्ते कालाध्वनोरत्यन्तसंयोगे अपवर्गे तृतीया सप्तमी पञ्चम्यौकारकमध्ये कर्मप्रवचनीययुक्ते द्वितीया यस्मादधिकञस्य च ईश्वरवचनं तत्र सप्तमी पञ्चम्यपाङ्परिभिः प्रतिनिधिप्रतिदाने च यस्मात् गत्यर्थकर्मणि द्वितीया चतुर्थ्यौ चेष्टायामनध्वनि चतुर्थी सम्प्रदाने क्रियार्थोपपदस्य च कर्मणि स्थानिनः तुमर्थाच्च भाववचनात् नमः स्वस्ति स्वाहा स्वधालं वषड्योगाच्च मन्यकर्मण्यनादरे विभाषा प्राणिषु कर्तृकरणयोस्तृतीया सहयुक्ते प्रधाने येनाङ्गविकारः इत्थं भूतलक्षणे संज्ञोऽन्यतरस्यां कर्मणि हेतौ अकर्तर्यणे पञ्चमी विभाषागुणे स्त्रियां षष्ठी हेतुप्रयोगे सर्वनाम्नस्तृतीया च अपादाने पञ्चमी अन्यारादितरर्ते दिक्छब्दाञ्चूत्तरपदाजाहि युक्ते षष्ठ्यतसर्थप्रत्ययेन एनपाद्वितीया पृथग्विना नानाभिस्तृतीयान्यतरस्यां करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य दूरान्तिकार्थैषष्ठ्यन्यतरस्यां दूरान्तिकार्थेभ्यो द्वितीया च सप्तम्यधिकरणे च यस्य च भावेन भावलक्षणम् षष्ठी चानादरे स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च आयुक्तकुशलाभ्यां चासेवायां यतश्च निर्धारणम् पञ्चमी विभक्ते साधुनिपुणाभ्यामच्चायां सप्तम्यप्रतेः प्रसितोत्सुकाभ्यां तृतीया च नक्षत्रे च लुपि प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा सम्बोधने च सामन्त्रितम् एकवचनं सम्बुद्धिः षष्ठी शेषे ज्ञो विदर्थस्य करणे अधीगर्थदयेषां कर्मणि कृण्यः प्रतियत्ने रुजार्थानां भाववचनानाम् अज्वरेः आशिषिनाथः जासि निप्रहणनाटक्राथपिषां हिंसायां व्यवहृपणोः समर्थयोः दिवस्तदर्थस्य विभाषोपसर्गे द्वितीया ब्राह्मणे प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने चतुर्थ्यर्थे बहुलं छन्दसि यजेश्च करणे कृत्वोऽर्थप्रयोगे कालेऽधिकरणे कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि कृतस्य च वर्तमाने अधिकरणवाचिनश्च न लोकाव्ययनिष्ठा खलर्थतृणाम् अकेनोर्भविष्यदाधमर्ण्ययोः कृत्यानां कर्तरिवा तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्यां चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः